सर्वान् नत्वा मातापितरन् सर्वान् नत्वा अद्यतन कक्ष्यां प्रारम्भं कुर्मः। गत कक्षा द्वयेषु वा त्रयेषु अस्माभिः तत्र तृतीयाध्यायस्य प्रवेशः कृतोस्ति। तृतीयाध्याये अस्माभिः प्रथमं तावत् अर्जुनस्य प्रश्नं तत्र अस्माभिः सः अर्जुनः पृच्छति ज्ञानमार्गः यदि भवत्मता भवता यदि तत्र ज्ञानमार्गः कर्ममार्गात् ज्यायसि इति भवता मता चेत् किमर्थं मां घोरे कर्मणि नियोजयसि इति सः पृच्छति। अपरञ्च सः वदति तत्र भवान् सम्यगेव वदति, केवलं मम मनसि तत्र मोहयसि इव भाति, तदर्थं कृपया हे कृष्ण तत्र शिष्यस्तेऽहं मां शाधि, मां कृपया वदतु यत् श्रेयसि तदेव तत्र तत् कृपया वदतु इति सः पृच्छति। तदा भगवान् वदति तत्र लोकेऽस्मिन् पुरा इत्युक्ते वेदकालादारभ्यैव यस्य निःश्वसितं वेदाः इत्येव अस्ति। यस्य निःश्वसितं परमात्मनः निःश्वसितं, कः परमात्मनः? कृष्णपरमात्मा एव। तत्र परमात्मनः निःश्वसितं वेदाः एवं तत्र पुरा एव वेदकालादारभ्यैव तत्र वेदकालात् वेदेषु वेदाङ्गेषु उपनिषत्सु अनन्तरं पुराण इतिहासेषु च तत्र तत्र प्रतिपादिता अस्ति। केन? परमात्मना। किं प्रतिपादितमस्ति? किं प्रतिपादितमित्युक्ते द्विविधा निष्ठा मया प्रतिपादिता अस्ति। द्विविधा निष्ठा इत्युक्ते किम्? तत्र साङ्ख्यानां कृते ज्ञानयोगः, योगिनां कृते कर्मयोगः। तत्र साङ्ख्याः इत्युक्ते के इति अस्माभिः अतीव सम्यक् दृष्टमस्ति। साङ्ख्याः इत्युक्ते तत्र ये नित्यानित्यवस्तुविवेकज्ञानिनः, तत्र विवेक वैराग्य शमादिषट्कसम्पत्ति मुमुक्षुत्वादि तत्र साधनाचतुष्टय मार्गरताः ये तत्र तादृशज्ञानिनः ये सन्ति ते साङ्ख्याः। ये ब्रह्मचर्यादेव सन्न्यासाश्रमः स्वीकृतवन्तः ते सर्वे एव साङ्ख्याः। ये तत्र वेदान्तविज्ञानसुनिश्चितार्थाः ते साङ्ख्याः। परमपांसपरिव्राजकाः ते साङ्ख्याः। ये तत्र ब्रह्मणि निष्ठावन्तः सन्ति ते साङ्ख्याः। तादृशजनानां कृते, स्थितप्रज्ञानां कृते तत्र ज्ञानयोगः उक्ता अस्ति। अन्यत्रापि तत्र योगिनां कृते ये साधकाः सन्ति, ये तत्र साधकाः सन्ति तेषां कृते कर्मयोगमार्गः उक्तमस्ति इति तत्र सम्यक् मया पूर्वमेव प्रतिपादितमस्ति इति तत्र कृष्णः, श्रीकृष्णः सम्यक् प्रतिपादयति, वदति। एवं ज्ञानयोगेन साङ्ख्यानां योगिनां कृते कर्मयोगः उक्तमस्ति। एवं चेत् तत्र को अर्थः भवति? तत्र मार्गद्वयं वर्तते, एकः मार्गः अन्यमार्गात् अवरः वा ज्येष्ठः उत्तमः अधमः इति वक्तुं न शक्यते। कर्ममार्गः आचरितव्यः एव, अनन्तरं यदा ज्ञानमार्गः ज्ञानोत्पादनं भवति तदा कर्मलेपनं स्वयमेव तत्र त्यक्तः भवति इति अस्माभिः ज्ञातुं शक्यते श्लोकत्रयात्। चतुर्थश्लोकं गच्छामश्चेत् तत्र वाक्यद्वयं वर्तते, अतीव सरलः वर्तते। कर्मणाम् अनारम्भात्, अहं कर्म न करोमि इति यः कोऽपि उपविशति चेत् तत्र कर्मणाम् अनारम्भात् नैष्कर्म्यं न भवति। अनन्तरं कर्म यः कोऽपि कर्म कुर्वन् वर्तते, यः कोऽपि पुरुषः कर्म कुर्वन् सः अस्ति इदानीं, परं झटिति सः निश्चयं करोति सन्न्यासः इत्युक्ते अकर्माचरणम् इत्युक्ते कर्मणः अनाचरणम् इति स्वीकृतमस्ति चेत् अद्य प्रारभ्य अहं कर्माचरणं त्यजामि, अहं सन्न्यासी भवामि, एवं न भवति। न च सन्न्यसनादेव सिद्धिं सन्न्यसनात् सः कर्मसन्न्यासात् कर्मत्यागात् यः कोऽपि सन्न्यस्तः भवितुं नार्हति इत्यपि तत्र प्रतिपादितमस्ति। अत्र जनाः सन्न्यस्तपुरुषस्य कर्माचरणं न भवति इति वदामश्चेत् तत्र जनाः वदन्ति अद्य प्रभृति अहं तत्र सन्न्यासं स्वीकरोमि, अहं कर्माचरणं नैव करोमि इति ते स्वीकुर्वन्ति चेत् तत्र तेन तत्र सिद्धिः ज्ञानसिद्धिः मोक्षसिद्धिः नैव भवति इति क्लियर्ली प्रतिपादितमस्ति. तत्र यनि मिस्कन्सेप्शन् न भवतु इति रीत्या तत्र सः सम्यक् प्रतिपादयति. अद्य भानुवासरे अपि गतभानुवासरे आचार्येणापि तत्र जगद्गुरूणां शृङ्गेरी जगद्गुरूणां तत्र अनुग्रहभाषणे अपि सः एतदेव सम्यक् प्रतिपादयति. तत्र वेदान्तेषु तत्र कथं प्रश्नोत्तर मालिकावत् तत्र भवति. तत्र यः कोऽपि एकः पुरुषः पृच्छति, प्रश्नं पृच्छति, तत्र सन्न्यासमार्गः मया स्वीकृतः, अनन्तरं पुनः मया तत्र कर्माचरणस्य अपेक्षा अस्ति इति चेत् तत्र रिवर्स् मार्गेण गन्तुं शक्यते वा इति. तत्र नैव गन्तुं शक्यते. तदर्थमेव किं कर्तव्यमित्युक्ते सर्वकर्माचरणं सर्वं समाप्य यदा पक्वः भवति मनुष्यः, यदा सः आशारहितः, सर्वकर्म आशा सर्वकर्म फलाशारहितः भवति, तेन तदनन्तरमेव तत्र सः सन्न्यासार्थं सः अर्हः भवति. तदनन्तरमेव तेन तत्र सन्न्यासः स्वीकर्तव्यः. एवं तत्र एकवारं सन्न्यासं स्वीकृत्य अनन्तरं तत्र किञ्चित् कालानन्तरं सः चिन्तयति नैवरेव कर्ममार्गः एव सम्यगस्ति, मम रुचिः कर्ममार्गे एव अस्ति, तत्र नामसङ्कीर्तनादि तत्र मम रुचिः तत्रैव वर्तते, मया तत्र गन्तुं शक्यते वा इति पृष्टे सति नैव गन्तुं शक्यते. तत्र केवलम् एकरीत्या एव गन्तुं शक्यते. ब्रह्मचर्यात् गृही भवति, गृही गृहस्थात् वनी भवति, वनात् वानप्रस्थात् सः सन्न्यासो भवति. एवं तत्र एवं वन् वे एव अस्ति, रिवर्स् वे नास्ति इति सम्यक् प्रतिपादितमस्ति अस्माकं जगद्गुरुणा अपि. अनन्तरं इफ् वि कम् टु श्लोक नम्बर् 5 प्रति आगच्छामश्चेत् तत्रापि उक्तमस्ति, तत्र हे अर्जुन, कर्मसन्न्यासात् कर्मानरम्भात् सिद्धिं न भवति, अन्यच्च विषयो वर्तते. किमिति? तत्र कश्चित् पुरुषः, यः कश्चित् पुरुषः जातु एकक्षणमपि तत्र अकर्मकृत् स्थातुं केनापि न शक्यते. किमर्थं तावत् उक्ते सति? सर्वः पुरुषः, सर्वोऽपि पुरुषः स्वैस्वैः प्रकृतिजैर्गुणैः सह अवशः कर्म कार्यते एव. यः कोऽपि तत्र पुरुषः भवति तत्र कर्म सः करोत्येव, सः प्रायेण उपविशति, प्रायेण चिन्तयति. यः कोऽपि अहं किमपि न करोमि इति एकत्र उपविशति चेदपि तत्र चिन्ता कर्म प्रवर्तते, तत्र ध्यानकर्म प्रवर्तते, निद्रा प्रवर्तते, एवं भवति. अनन्तरम् अन्यदपि तत्र सः तत्र किञ्चित् वार्न् करोति. किं वार्न् करोति इत्युक्ते तत्र आक्चुलि एकं कार्यं कर्तुं शक्यते. भवतु, श्लोका नम्बर् 5 दृष्ट्वा यदि श्लोका नम्बर् 8 पश्यामश्चेदपि यदि यः कोऽपि चिन्तयति अहं कर्म न करोमि इति एकत्र उपविशति चेत् तस्य बुभुक्षा भवत्येव, तस्य पिपासा भवत्येव, तस्य आयासानन्तरं निद्रा भवत्येव, तत्र देहार्थं देहचालनार्थं तत्र किञ्चित् किञ्चित् तेन कर्तव्यमेव. तत्र एवं चेदपि शरीरयात्रापि च ते न प्रसिद्ध्येत कर्मणः. यदि सः अहं किमपि कर्म न करोमि इति अकर्मणः भवितुं सः प्रयत्नं करोति चेत् शरीरयात्रा इत्युक्ते यत् तेन प्रतिनित्यं यत् तत्र कर्म कर्तव्यं तत्र तादृशकर्माचरणं विना तत्र शरीरयात्रा अपि अतीव दुष्करं भवति इत्यपि तत्र अष्टमश्लोके उक्तमस्ति. इदानीं श्लोक 6 श्लोका प्रति पुनः आगच्छामः. अनन्तरं सः तत्र अतीवस्पष्टतया भेदं प्रदर्शयति. को भेदः? अतीवस्पष्टतया को भेदं प्रदर्शयति सः? भेदः इत्युक्ते कर्मेन्द्रियाणि संयम्य यास्ते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचारः सोच्यते. श्लोका नम्बर् 6 मध्ये मिथ्याचार डेफिनिशन्, श्लोका नम्बर् 7 मध्ये विशेषः विशिष्टरीत्या यः भवति, विशिष्टरीत्या विशिष्टकर्मयोगी यः भवति तस्य डेफिनिशन् दत्तमस्ति श्लोका नम्बर् 7 मध्ये. कः मिथ्याचारः? अतीव सरलः वर्तते. यः विमूढात्मा कर्मेन्द्रियाणि संयम्य, सर्वान् इन्द्रियाणि संयम्य परं मनसा सः इन्द्रियार्थान् स्मरन् उपविशति, तादृशः पुरुषः मिथ्याचारः भवति. तत्र अस्माकं प्रेमी अण्णा गुरुजिना तत्र एका कथा उक्ता अस्ति. तत्र श्लोकार्थम् एकः सन्यासी आसीत्, तत्र सः सन्यस्तः उपविश्य आश्रमे उपविश्य सर्वदा तत्र सर्वं तत्र सः सन्यस्तः भूत्वा अनन्तरम् आश्रमे उपविशति, तत्र सर्वं व्यवस्था सर्वमस्ति, तत्र आश्रमः अतीव व्यवस्थासहितः अतीव विशालः सर्वसौख्यप्रदः अस्ति, एवं तत्रैव उपविशति। परं रात्रौ रात्रौ किञ्चित् सः चिन्तयति किमभवत् किमभवत् इति चिन्तयन् वर्तते। तत्र शिष्याः चिन्तयन्ति तत्र रात्रौ झटिति सः निद्रां यदा करोति झटिति उत्थाय किमभवत् किमभवत् इति सः एवमेव प्रलपन् वर्तते तत्र सन्यासी। तत्र शिष्याः चिन्तयन्ति तत्र किमपि तत्र कोऽपि व्यथा वर्तते, कापि व्यथा वर्तते अस्माकं गुरुणां मनसि, अस्माभिः निवारितव्या इति ते सर्वे चिन्तयन्ति। तदा अनन्तरम् एकवारं तत्र एकः शिष्यः तत्र सन्यासिनः पूर्वाश्रमगृहं प्रति तत्र सर्वं क्षेत्रं ग्रामं प्रति गच्छति, तत्र सर्वम् एकवारं पृच्छति किमभवत् इत्युक्ते एवमेव तत्र अस्माकं गुरवः तेषां पूर्वाश्रमे कथमासन् किं किमपि तत्र घटना सञ्जाता वा इति सः तत्र सर्वत्र विचारं करोति। तदा तत्र ज्ञायते पूर्वाश्रमे अस्य विवाहः सम्पन्नः आसीत्, तस्य सन्यासिनः पत्नी गर्भिणी आसीत्, तदनन्तरमेव एषः सन्यासं स्वीकृत्य आगतवान् वर्तते। तदनन्तरं तत्र किमभवत् किमभवत् इति सः पत्न्यः तत्र किमभवत् इति सः तत्र चिन्तयन् वर्तते। तदा एषः शिष्यः तत्र सर्वान् विचारान् ज्ञात्वा पुनः आश्रमं प्रति आगच्छति। अग्रिमवारे तदा यदा तत्र सन्यासी पृच्छति किमभवत् किमभवत् इति, तदा सः शिष्यः आगत्य वदति चिन्ता मास्तु पुत्रोऽभवत् 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 इति सः वदति। तदनन्तरं सः सन्यासी तत्र सः सम्यक् जातः इति तत्र एका हास्यकथा भवति। एवं तत्र तत्र को सन्देशः इत्युक्ते तत्र यावत्पर्यन्तं परिपूर्णतया तत्र निर्लेपत्वं निर्ममत्वं वा तत्र ज्ञानप्राप्तिः न भवति तावत्पर्यन्तं तत्र सन्यासस्वीकारः यदा वर्तते तत्र किञ्चित् क्लेशः एव। तत्र केचन जनाः ज्ञानसाधनमार्गेण तत्र साधनार्थं सन्यासं स्वीकुर्वन्ति, तदपि वरमेव, परं तत्र मिथ्याचारवत् वर्तना न कर्तव्या एव। तत्र कर्मेन्द्रियाणि संयम्य तत्र तदेव हिमालयेषु उपविश्य यदि यः कोऽपि तत्र स्वगृहस्य चिन्तनां कुर्वन् वर्तते, तत्र अस्माभिः तत्र चर्चितमासीत् तत्र सप्तशती मध्ये देवी सप्तशती मध्ये तत्र वैश्यवत् वा राजावत् तत्र ते तत्र किमभवत् मम राज्ये किमभवत् मम गृहे किमभवत् पुत्रदारादिभिर् यैः निरस्तो भवान् लुब्धैः पुत्रदारादिभिर्जनैः इति तत्र पुत्रदारानधिकृत्य यदि चिन्तयति चेत् तत्र वनमागत्यापि तर्हि तत्र प्रयोजनं न भवति, तत्र ते सर्वे केवलं मिथ्याचाराः भवन्ति। तद्विशिष्ट्य अन्यः मार्गः कः इति पृष्टे सति यः कोऽपि मनसा इन्द्रियाणि नियम्य असक्तः भूत्वा कर्मेन्द्रियैः स्वसर्वान् कर्मयोगम् आरभते सः एव विशिष्यते। अस्माभिः द्रष्टुं शक्यते तत्र ये ये जगद्गुरवः सन्ति तत्र ये ये तत्र काञ्ची पुरी बदरी इत्यादि तत्र जगद्गुरवः सर्वत्र सन्ति अनेकाः जगद्गुरवः सन्ति ये ये तत्र ते सर्वे तत्र मनसा इन्द्रियाणि नियम्य ते सर्वे असक्ताः एव, तत्र तेषां सांसारिकजीवने आसक्तिः न भवति, परं तथापि तत्र किं कुर्वन्ति इत्युक्ते प्रतिनित्यं प्रणवजपः प्रतिनित्यं तत्र प्रातः सायङ्काले पूजादिकं तत्र चन्द्रमौळीश्वरपूजा वा तत्र आराधनपूजाराधनादिकं तत्र अतीव प्राजेक्ट्सादिकं तत्र गोरक्षणं वा भवतु शालास्थापनं वा भवतु इत्यादिकं ते सर्वे तत्र कर्माचरणं कुर्वन्त्येव, नूतनमठस्थापनं नूतन तत्र तत्र सम्प्रोक्षणं तत्र देवता देवालयानां पुनरुज्जीवनम् इत्यादिकं धर्मप्रचारार्थं ते कूर्मोङ्गानीव ते तत्र कार्याणि कुर्वन्त्येव, तादृशाः एव विशिष्यन्ते। तत्र अनन्तरम् अस्य सप्तमश्लोकस्य उदाहरणं स्वीकर्तव्यं चेत् हु इस् द बेस्ट् एक्साम्पल् फार् श्लोका नम्बर् सेवेन् यदि पश्यामश्चेत् तत्र श्रीकृष्णः एव बेस्ट् एक्साम्पल् फार् श्लोका नम्बर् सेवेन्. कथं भवति इत्युक्ते तत्र यदि तत्र कृष्णाष्टोत्तरं पश्यामश्चेत् तत्र अनेकनामानि सन्ति. तत्र एकनाम वर्तते अनादिब्रह्मचारिणे नमः इति एकनाम वर्तते. तत्र कः विशेषः? यद्यपि षोडशस्त्रीसहेषाय नमः, तत्र अष्टमहिषी पतये नमः इत्यादि नामानि अपि सन्ति. तत्र तर्हि चेत् षोडशसहस्रस्त्रीपतिः एषः, एवं तत्र अष्टमहिषी तत्र जाम्ब सत्यामित्रविन्द काळिन्दी इत्यादि तत्र अष्टमहिषी समेतः एषः. तत्पुनरपि कथम् अनादिब्रह्मचारी इति वक्तुं शक्यते इति पृष्टे सति, तत्र असक्तः कर्मेन्द्रियाणि सर्वाणि संयम्य, तत्र मनसा कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि सर्वान् संयम्य असक्तरीत्या सः कार्यं करोति, परम् अवश्यं कां करोति, सः दौत्यं प्रति गच्छति, सः पाण्डवान् रक्षति, सः दुर्योधनं प्रति उपदेशं ददाति, विदुरसहितः भवति, अक्रूर उपदेशः करोति, कपिलवासुदेव भूत्वा देवहूति उपदेशः करोति. एवं पश्यामश्चेत् सर्वाणि कर्माणि करोति धर्मप्रचारार्थं, धर्मसंस्थापनार्थम्, अधर्मनाशनार्थं, शिष्टपरिपालनार्थं, दुष्टशिक्षणार्थं सर्वाणि कर्माणि करोति सः श्रीकृष्णः. परं मनसा सः अतीव असक्तः भवति. तदर्थमेव द करेक्ट् ऐडियल् हूम् वी केन् आल्वेस् विच् इस् वै वी वर्षिप् अवर् ऐडियल्स्. अस्माकं तत्र ऐडियल् भवति चेत्, यः कोऽपि तत्र आधारपुरुषः ध्येयपुरुषः एकः भवति चेत् श्रीकृष्णः एव तत्र सप्तमश्लोकार्थम् अतीव बेस्ट् एक्साम्पल् भवति अस्माभिः तत्र अनेकरीत्या द्रष्टुं शक्यते. अनन्तरं यदि श्लोका नम्बर् 8 प्रति गच्छामश्चेत् नियतं कुरु कर्म त्वं कर्मज्यायो ह्य कर्मणः, एतदपि तत्र अस्माभिः तत्र ध्येयं वा मार्गदर्शिनं वाक्यवत् अस्माभिः स्वीकर्तुं शक्यते. मार्गदर्शी वाक्यवत् अस्माभिः स्वीकर्तुं शक्यते. यदा कदापि जीवने तत्र कोऽपि सन्देहः वर्तते, इदानीं मया एतत् कर्तव्यं वा न कर्तव्यं वा इति पृष्टे सति, तत्र प्रथमं तावत् शास्त्ररीत्या धर्मरीत्या तत्र द्रष्टव्यम्. अनन्तरं शास्त्रविहितं धर्मविहितम् अस्ति चेत् इदानीम् अहम् एतत् करोमि वा नो चेत् एवमेव उपविशामि वा इति चिन्त्यते चेत् एतदेव तत्र अस्माकं कृते मार्गदर्शिनी भवति, दीपशिखा भवति एतद्वाक्यम्. नियतं कुरु कर्म त्वं कर्मज्यायो ह्य कर्मणः, नियतं कर्म कुरु. तदर्थमेव नियतम् इति उक्तमस्ति. नियतम् इत्युक्ते किं? शास्त्रविहितं, कर्मविहितं, धर्मशास्त्रविहितं यत्किमपि भवति तादृशकर्म नियतं कुरु. कर्म कुरुत्वं नियतं कर्म कुरु. नियतं यत्किमपि नियतं वर्तते, नियमरीत्या उक्तं नियतम् इति स्वीकर्तुं शक्यते. नियमरीत्या यत् उक्तमस्ति नियतं, शास्त्रविहितं कर्म यदस्ति तत् कुरु, तत् सर्वदा कुरु. अत्रापि किञ्चित् सन्देहः वर्तते. नियतं कर्म कुरु इति उक्तमस्ति, अस्माभिः पूर्णरीत्या न कर्तुं शक्यते, किञ्चित् किञ्चित् अस्माभिः कर्तुं शक्यते इति पृष्टे सति तत्र तत् निष्फलं भवति वा, अनन्तरं ज्ञानार्जनं न भवति चेत् अस्मिन् जन्मनि किं कर्तुं शक्यते इति पृष्टे सति, अस्माभिः पूर्वं गन्तुं शक्यते. स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्. यत्किमपि किञ्चित् किञ्चित् वा कुर्मः तत् अवश्यं तत्र अक्युमुलेट् भवत्येव, बैंक अकौंट् वत् भवति, जन्म जन्मान्तर बैंक अकौंट् भवति तत्. तत्र सर्वं गत्वा तत्र एकत्र उपविशति. अनन्तरं तत् अग्रे जन्मनि किं भवति तत्र तत्र अग्रिमे जन्मनि पश्यामश्चेत् योगभ्रष्टः अभिजायते. अग्रिमे तत्र अग्रे पश्यामः तत्र शुचीनां श्रीमताङ्गेः योगभ्रष्टः अभिजायते. तत्र पूर्वजन्म आचरितकर्म तत्सम्बन्धिज्ञानमपि शीघ्रमेव आगच्छति. तत्र पश्यामः केचन जनाः तत्र बाल्यादेव झटिति सर्वज्ञानार्हाः ज्ञानसम्पन्नाः भवन्ति. कथं भवन्ति? सर्वैः तदेव तादृश बुद्धिशक्त्या एव तत्र जन्म प्राप्यते. परं कथं ते केचन जनाः शीघ्रं प्राप्नुवन्ति, कथं किञ्चित् विलम्बेन प्राप्नुवन्ति इत्युक्ते, तत्र पूर्वजन्म कर्म ज्ञानसम्बन्धि यत् अक्युमुलेशन् अस्ति तेन सहायेन एवं भवति. तर्हि चेत् किं भवति, तत्र नियतं कर्म कुरु, यतः कर्मज्यायो ह्यकर्मणः. कर्माचरणेन किं भवति, अस्मिन् जन्मनि तत्र अस्माकं जगद्गुरुणा अस्मिन् अनुग्रहभाषणे एतदपि उक्तमासीत्, तत्र अस्मिन् जन्मनि ज्ञानप्राप्तिप्रतिबन्धकः नास्ति चेत् ज्ञानप्राप्तिः भवति. यदि ज्ञानप्राप्तिप्रतिबन्धकः कोऽपि वर्तते चेत् अस्मिन् जन्मनि न भवति, आगामि यत्किमपि वा जन्मनि अवश्यं ज्ञानप्राप्तिः भवत्येव. तदर्थं नियतं कुरु कर्मत्वं कर्मज्यायो ह्यकर्मणः. यदि तत्र अकर्मरीत्या यदि एकः उपविशते चेत् शरीरयात्रापि च ते न प्रसिद्ध्येत कर्मणः. शरीरयात्रापि अतीव दुष्करं भवति. यदा शरीरयात्रा दुष्करं भवति चेत् तत्र सः अन्नपानादिकं न कुर्वन् सः तत्र उपविशेत् तत्र आत्महत्यादोषः एव भवति, अन्यत् किमपि तत्र साधना नैव भवति इति भाष्यकारेण स्पष्टीकृतमस्ति. एवं नियतं कुरु कर्मत्वं कर्मज्यायो ह्यकर्मणः अतीव महत् ध्येयवाक्यम् अस्माभिः तत्र चर्चितमस्ति. पश्यामः इदानीं श्लोका नम्बर् 8 एकवारं पश्यामः. नियतं कुरु कर्मत्वं कर्मज्यायो ह्यकर्मणः. शरीरयात्रा विचते न प्रसिद्ध्येत कर्मणः. तत्र अस्माभिः गतकक्षायां केवलम् अन्वयः अस्माभिः दृष्टमासीत्. इदानीं पदपदार्थं पश्यामः. हे अर्जुन, त्वं नियतं कर्म कुरु. यत् निर्दिष्टमस्ति, यत् आब्लिगेटरी अस्ति, तर्हि चेत् को धर्मः कर्मः अस्माकं कृते तत्र आब्लिगेटरी भवति. वेरि सिम्पल्, वाट् इस् द रेफरेन्स् पायिण्ट् फार् अस् टु नो वेदर् दिस् इस् प्रिस्क्रैब्ड् आर् नाट् प्रिस्क्रैब्ड्? पायिण्ट् नम्बर् 1, शास्त्रविहितम्. पायिण्ट् नम्बर् 2, वाट् एवर् इस् आर् यु डूयिङ्ग्, इस् इट् अण्डर् द बौण्ड्रीस् आफ् धार्मिक् रैट्स्? यदि धर्म बौण्ड्री मध्ये भवति वा इति द्रष्टुं शक्यते. पायिण्ट् नम्बर् 3, किं कर् यदि तत्रापि कोऽपि तत्र सन्देहः वर्तते चेत् इतरान् ज्येष्ठान् गुरून् पृष्ट्वा कुर्वन्तु. यदि तत्तत्ते इदानीं प्रष्टुं न सन्ति, पायिण्ट् नम्बर् 4, यदि इफ् दे आर् नाट् अवेलेबल् टु फार् अस् इदानीं, तत्र किं कर्तुं शक्यते? यथा ते तत्र वर्तेरन् तथा तत्र वर्तेताः. उपनिषदेव तत्र वेदवाक्य अनुशासने वदति. वेरि सिम्पल्, यथा युष्माकं पूर्वजाः ये तत्र धर्मकर्म आचरणरताः आसन् ते यथा तत्र वर्तेरन् तथा यूयं वर्तेथाः. तावदेव. तत्र फैनली संशयः वर्तते चेत् तत्र अत्रापि तत्र एकः अतीव विशेषवाक्यमस्ति. तत्र आपस्तम्भसूत्रे पश्यामश्चेत् आपस्तम्भः सर्वां सोऽपि एतदेव वदति, तत्र सूत्रवत् पालनं करोतु, एतदेव शास्त्रविहितम्. अनन्तरं शास्त्रविहितं सर्वं तत्र समाप्य तदुपरि अपि सन्देहः वर्तते चेत् तत्र गृहे ये अतीव तत्र गृहे या अतीव ज्येष्ठा वा वृद्धा महिला वर्तते तां प्रति गत्वा पृच्छतु, सा सर्वान् सम्प्रदायान् शास्त्रकर्मान् सा जानाति, तां पृच्छतु इति तत्र उक्तमस्ति आपस्तम्भमहर्षिणापि सूत्रेषु. एवम् उपनिषत्सु अपि उक्तमस्ति, ये ज्येष्ठाः ये श्रेष्ठाः तत्र ये सन्ति ते यथा तत्र वर्तेरन् तथा वर्तेथाः इति तत्र उक्तमस्ति. एवं तत्र नियतं कुरु कर्म, नियतम् इति पदस्य यदि विश्लेषणं कुर्मश्चेत् एवमस्ति, तत्र कोऽपि सन्देहः अस्ति चेत् एवम् अस्ति आचरण कर्तव्या इति उक्तमस्ति. एवं नियतं कर्म कुरु. हि अकर्मणः, तत्र कर्म अकर्मणः, कर्म सर्वदा ज्यायः भवति, सर्वदा अकर्मणः कर्म ज्यायः. देन् इन् आक्षन् आक्षन् इस् आल्वेस् सुपीरियर्. अकर्मणः ते शरीरयात्रापि न प्रसिद्ध्येत. तत्र कर्माभावात् देहयात्रापि तत्र न जायेत, तत्र न भवति. पूर्वकक्षायाम् अस्माभिः तत्र सुन्दरकाण्डस्य उदाहरणं स्वीकृत्य हनुमतः चरित्रमपि अस्माभिः दृष्टमासीत्. अन्यच्च कथम् अस्माभिः नित्यजीवने अपि कथं वर्तना कर्तव्या इत्यपि अस्माभिः तत्र चर्चितं चिन्तितम् अस्ति. अनन्तरं त्वं దకారాంత త్రిశులింగేషు సమాన ప్రథమైకవచనం నియతం అవ్యయం కర్మ నకుంసకలింగ ద్వితీయ ఏకవచనం నకారాంత కురు మధ్యమపురుష లోట్ మధ్యమపురుష ఏకవచనం కృ డుక్రించకరణే హి అవ్యయం అకర్మణః న కర్మణః నకారాంత నపుంసకలింగ పంచమీ ఏకవచనం పరం తత్ర నై న కర్మణః అకర్మణః నై ప్రయోగః కర్మ కర్మాచరణం యాక్షన్ నకారాంత నపుంసకలింగ ద్వితీయ ఏకవచనం జ్యాయః జ్యాయః ప్రథమా ఏకవచనం అకర్మణః పునః తదేవ నై ప్రయోగః తే ప్రథమా విభక్తి ద్వివచనం తే తవ తవ తే ఇది షష్ఠీ అపి స్వీకర్తుం శక్యతే ఫార్ యు చతుర్థి అపి స్వీకర్తుం శక్యతే తుభ్యం తత్ర తవ శరీరయాత్ర నో చేత్ తుభ్యం తవ కృతే శరీరయాత్ర ఇత్యపి స్వీకర్తుం శక్యతే శరీరయాత్ర స్త్రీలింగ ప్రథమా ఏకవచనం అపి అవ్యయం న అవ్యయం ప్రసిద్ధ్యేత తత్ర షిధు ప్రషిధు ఇతి ధాతుః విధిలింగ్ ప్రథమపురుష ఏకవచనం ఏవమస్తి. భవాన్ నిత్యం యస్మిన్ కర్మణి అధికృతః అస్తి తత్ కర్మ ఆచరతు ప్రథమం వాక్యం. కర్మణః అనాచరణాత్ కర్మాచరణం శ్రేష్టం వర్తతే కించ కర్మాభావే భవతః శరీర సంరక్షణమపి కర్తుం న శక్యతే ఇతి క్లియర్లీ ఉక్తమస్తి. వ్యాకరణ భాగం పశ్యామః. జ్యాయో హి విసర్గరేఫ గుణ ఉకార గుణాదయః హ్యకర్మణః హి అకర్మణః యణ్ శరీరయాత్రాపి దీర్ఘసంధి శరీరయాత్ర శరీరస్య యాత్ర శరీరయాత్ర షష్ఠీ తత్పురుష అకర్మణః న కర్మణః అకర్మ తస్య అకర్మణః నై తత్పురుష సమాసః. నియతం ని ఉపసర్గపూర్వక గుడ్ క్వశ్చన్. ఏకవారం పశ్యామః. నియతం కర్మ జ్యాయః కర్మ పుల్లి కర్మ జ్యాయః ద్రష్టుం శక్యతే. ఏకవారం పశ్యామి. కర్మ జ్యాయః నకారాంతః పుల్లింగః కర్మ జ్యాయః ఇతి స్వీకర్తుం శక్యతే. ఏకవారం పశ్యామి ద్రష్ట్వా వదామి అవశ్యం. ఇది అత్ర స్వీకుర్మశ్చేత్ కర్మన్ అస్తి కర్మజ్యాయః ఇతి స్వీకృతమస్తి. పశ్యామః ఏకవారం చింతయామః. తత్ర వెంకట్ సర్ అస్తి సహ తం పృష్ట్వా వదామి అవశ్యం. నియతం అస్తి ని ఉపసర్గపూర్వక యమ్ ధాతోః కృతప్రత్యయః భూతకృదంత అస్తి తద్దితాంతః జ్యాయః ప్రశస్య జ్యా ఇతి ఆదేశః అస్తి వృద్ధౌ అస్తి ఇయసున్ ప్రత్యయః జ్య ఇతి ఆదేశః వర్తతే. ఏతదేకవారం పృష్ట్వా వక్తుం శక్యతే. జ్యాయః ఇతి కథం నిష్పన్నః కథం అన్వయీకర్తవ్యం ఇతి తత్ర పశ్యామః. శ్లోక నంబర్ 9 స్వీకుర్మః. ఇదానీం ఏకవారం శ్లోకం వదామః. యజ్ఞార్థాత్ కర్మణోన్యత్ర లోకోయం కర్మ బంధనః తదర్థం కర్మ కౌంతేయ ముక్తసంగః సమాచర. శ్లోకం ద్వివారం పఠంతు పదచ్ఛేదం పశ్యంతు అన్వయం కుర్వంతు కృపయా. కథం భవతి అన్వయం. கர்ம முக்த சங்கஹ சமாச்சர. வெரி குட். முக்த சங்கஹ சமாச்சர இஸ் த சிம்பிள் வாக்கியம். சமீச்சீனம். கர்ம முக்த சங்கஹ சமாச்சர. ஓகே, ததா ஸ்வீகர்த்தும் சக்யதே வா, பஷ்யாமஹ. சேம் கான்செப்ட் அஸ்மாபிஹ் பூர்வமேவ த்ருஷ்டமஸ்தி. கர்மஜம் புத்தியுக்தா ஹி ஃபலம் தியக்த்வா மனீஷிணஃ ஜன்ம பந்த விநிர்முக்தாஹ பதம் கச்சந்தி அநாமயம். செகண்ட் சாப்டர் 51st ஸ்லோகா யதி பஷ்யாமஸ்சேத் அஸ்மாபிஹ் பூர்வமேவ த்ருஷ்டமஸ்தி. வெரி வெரி சிமிலர் கான்செப்ட். தத்ர யதா தத்ர ஸ்வதர்மாச்சரணம் கர்ம மார்க்கஸ்ய தத்ர ப்ரவேஷஃ கார்யதே அர்ஜுனம் பிரதி, ததா தத்ர ஸஹ யோகஸ்த குரு கர்மாணி கிருபணாஹ ஃபலஹேதவஹ யோக கர்மசு கௌஷலம் இத்யாதீன் தத்ர வாக்யான் உக்த்வா தத்ர கர்மஜம் புத்தியுக்தா ஹி ஃபலம் தியக்த்வா மனீஷிணஃ தாதிருஷரீத்யா குர்வந்தி சேத் கிம் பவதி ஜன்ம கர்ம ஜன்ம பந்த விநிர்முக்தாஹ அநாமயம் பதம் கச்சந்தி. ததேவ அத்ராபி தத்ர ப்ரதிபாதிதமஸ்தி. யஜ்ஞார்த்தாத் கர்மணோன்யத்ர லோகோயம் கர்மபந்தனஹ ததர்த்தம் கர்ம ஹே கௌந்தேய முக்தஸ்கஹ சமாச்சர. யஜ்ஞார்த்தாத் யஜ்ஞார்த்தாத் இத்யுக்தே கிம் யஜ்ஞ இத்யுக்தே தத்ர சாங்கர பாஷ்யே பஷ்யாமஸ்சேத் சஹ உபனிஷத் வாக்கியம் ஸ்வீகிருத்ய பாஷ்யம் கரோதி. யஜ்ஞோ வை விஷ்ணுஹ யஜ்ஞஹ இத்யுக்தே தத்ர விஷ்ணுஹ இத்யேக ஏகஹ அர்த்தஹ வர்த்ததே. ஏவம் விஷ்ணுஹ இத்யுக்தே கிம் சர்வவ்யாபகஹ யஹ வர்த்ததே சஹ விஷ்ணுஹ சர்வத்ர சஹ தத்ர வ்யாப்தஹ பவதி தாதிருஷஹ விஷ்ணுஹ. தரி பரமாத்மா பரமாத்மா ஏவ தத்ர யஜ்ஞஹ. அக்ரே அஸ்மாபிஹ த்ருஷ்டும் சக்யதே தத்ர பிரம்மார்ப்பணம் பிரம்மஹவிஹ பிரம்மாக்னு பிரம்மணாஹுதம் பிரம்மைவ தேன கந்தவ்யம் பிரம்மகர்ம சமாதினா சர்வம் தாவத் யஜ்ஞ அபிச்ச தத்ர யதி விஷ்ணு சஹஸ்ரநாமே பஷ்யாமஸ்சேத் யஜ்ஞபுக் யஜ்ஞகிருத் யஜ்ஞி யஜ்ஞபுக் யஜ்ஞசாதனஹ யஜ்ஞாந்தகிருத் யஜ்ஞ யஜ்ஞமன்னமன்னாதேவ ச இத்யாதயஹ தத்ர நாமானி பவந்தி. ஏவம் தத்ர பஷ்யாமஸ்சேத் யஜ்ஞஹ யஜ்ஞார்த்தாத் இத்யுக்தே கஹ அர்த்தஹ. யஜ்ஞார்த்தாத் இத்யுக்தே விஷ்ணுவர்த்தாத் விஷ்ணுவர்த்தாத் இத்யுக்தே விஷ்ணு பூஜார்த்தாத் ஈஸ்வர பிரணிதானம் இது ஸ்வீகர்த்தும் சக்யதே. இத்யுக்தே யத் ஈஸ்வர பிரணிதானம் பவதி தாதிருஷ ரீத்யா கர்மாச்சரணம் கர்த்தவ்யம் யஜ்ஞவத் தத்ர கோபி ஃபல அனபேக்ஷயா கேவலம் லோகக்ஷேமார்த்தம் கேவலம் தத்ர ஈஷ் தத்ர உபாத்ததுரிதக்ஷயத்வாரா கேவலம் ஸ்ரீ பரமேஸ்வர பிரீத்யர்த்தம் நோச்சேத் ஸ்ரீமதஹ பகவதஹ ஸ்ரீமன் நாராயண பிரீத்யர்த்தம் வா தத்ர கேவல பகவதஹ பிரீத்யர்த்தம் ஈஸ்வர பிரணிதான ரீத்யா யா யத் கர்மாச்சரணம் பவதி ததேவ யஜ்ஞார்த்தாத் கர்மணோன்யத்ர இதி ஸ்வீகர்த்தும் சக்யதே. யஜ்ஞார்த்தாத் விஷ்ணு பிராப்தி ரூபாத் பிரயோஜனாத் பகவத் பிராப்தி ரூபாத் பிரயோஜனாத் பகவத் ஆராதன ரூப கர்மாத் நிரபேக்ஷத்வாத் கர்மாத் இதி வயம் பஷ்யாமஸ்சேத் கர்மணஹ அன்யத்ர தத்ர கேவலம் யஜ்ஞார்த்தாத் கர்மணஹ அன்யத்ர அயம் லோகஹ வர்த்ததே சேத் யத் யஜ்ஞார்த்தம் விஹாய ஈஸ்வர பிரணிதான ரீத்யா கர்மாச்சரணம் விஹாய அந்யத் அபேக்ஷயா யதி வயம் கர்மாச்சரணம் குர்மஸ்சேத் தத்ர கர்ம பந்தனஹ அவஷ்யம் பவதி அயம் லோகஹ கர்ம பந்தன சஹிதஹ அவஷ்யம் பவதி. கேவலம் ஸ்ரீ பரமேஸ்வர பிரீத்யர்த்தம் கர்ம கரிஷ்யே ததர்த்தமேவ தத்ர நித்ய கர்மா யத்யத் பவதி தத்ர அஸ்மாகம் தத்ர சங்கல்ப ஈப்ஸா லிஸ்ட் ந பவதி தத்ர ஏதத் ப்ராப்த்யர்த்தம் தத் ப்ராப்தம் இத்யாதிகம் இத்யாதிகம் சர்வம் ந பவதி கேவலம் பரமேஸ்வர பிரீத்யர்த்தம் பிராத சந்தியாம் உபாசிஷ்யே பரமேஸ்வர பிரீத்யர்த்தம் சாயம் சந்தியாம் சாயம் சவிதாதானம் உபாசிஷ்யே ஸ்ரீ பரமேஸ்வர பிரீத்யர்த்தம் பிராதர் உபாசனம் கரிஷ்யே தேன பகவந்தம் பிரீணயானி தாவதேவ பவதி தத்ர வாக்கியாதிகம் யதி தத்ர பிரயோகே பஷ்யாமஸ்சேத் கேவலம் தாவத் பவதி ததர்த்தமேவ யஜ்ஞார்த்தாத் கர்மணோன்யத்ர அந்யத்ர யஜ்ஞார்த்தான் விஹாய அந்யத்ர ரீத்யா யதி கர்மாச்சரணம் பவதி சேத் தத்ர கர்ம பந்தனம் அவசியம் பவதி. அஸ்மாபிஹ் பூர்வம் திருஷ்டமாசீத் பை அவர் தாட்ஸ் பை அவர் ஆக்ஷன்ஸ் அண்ட் டீட்ஸ் பை அவர் வேர்ட்ஸ் we keep creating multiple janmas for ourselves. Therefore, it is very, very carefully we should watch our words, thoughts and deeds. Why? Yadi vayam tatra kopi asham svikurmaha. If we have a desire, something, unfulfilled desire, we are creating something. If we give a promise to somebody by words that I will be doing this, yadi vayam tatra, if we are not able to fulfill that promise, we are creating more janmas for us. By karmacharanam and phalapeksha, if we are doing something, unless that karmacharanam, that karma we are doing only for the sake of doing that karma and for Ishvara Pranidhana, otherwise we are creating more and more birth to enjoy the fruits, good or bad, of those karma. Evam, by our thoughts, by our words and by our deeds, we should always be as detached as possible and be very careful and always samarpana bhava of all the three of all these three to the Almighty. Yada vayam asmakam sarva chintanamapi sarva vachanani api sarva karmani api tatra bhagavadarpanam kurmaha bhagavat para kurmaha tada tatra karma bandhanat vimuktihi kinchit sadhya bhavati. Which is why again and again very carefully it has been very conservatively and very carefully asmakam purvajaihi tatra uktamasti dhyayato vishayan pumsaha. Even if you think of vishaya, tatra kurvato vishayan neva dhyayato vishayan pumsaha sangasteshu pajayate. You get an attachment to it. Once you get an attachment, it is very, very difficult to liberate yourself from the karma bandhana, from the cycle. Evam pashyamaschete yajnyarthat anyatra yakkopi karma karoti tatra karma bandha bhavati tadartam he Kaunteya, he Kunti putra, he Arjuna, he priya sakhe tatra vatsalya purvat purvakatsah vadati tadartham mukta sangaha samachara. Sarvada mukta sangaha samachara. Mukta sango bhavitum kim kartavyam satsangam prati gantavyam tavadeva. Mukta sangaha samachara. Yajnyarthat karmanaha anyatra ayam lokaha karma bandhanaha karmaihi bandaha bhavati tadartham he Kaunteya mukta sangaha karma samachara. Sarvada nirapekshatvat karma kuru tavadeva uktamasti. Ekavaram pashyamaha tatra kartra karma kriya tatra pada parichayam pashyamaha. Yajnyarthat panchami ekavachanam, karmanaha prathama ekavachanam, anyatra avyayam, anyatra trashil pratyaha asti, tra asti lokyan bhavati, anyatra ityukte yatra kutra apiva, anyatra anya vishayeshu anya situation madhye yatra kutra api svikartum shakyate. He lives in vain who does not utilize the human birth which is rare to obtain for the attainment of divinity. Very correct. Ramakrishna Paramhansena uktamasti anyata viveka chudamanyam pashyamaschedapi yatareva uktamasti. Durlabham trayame vaitate manushyatvam mumukshatvam devanugraha hetukam. Anantaram api tatra yadi pashyamaschete durlabham manusho janma tatra apicha pumstvam tatra viprata evam gachati. Anantaram yadi vayam pashyamaschete dhiktasya janma kumatehe purushadhamasya iti uktamasti. Tatra manushya janma prapyopi prapyapi taprapyapi yakkopi purushaha tatra swajanma sarthaki kartum yatyat karmacharanam kartavyam tad nakaroti chete tasya janmani dhik eva iti api uktamasti. Samichinam tatra sarvaihi acharyaihi etadeva uchyate. And the best part about all the acharyas, all the upadeshas is that they cannot differ from each other from a principle or a basic foundation way. Because what is the reason? Very, very simple reason. All of them finally will refer back to the Vedas and Upanishads. Veda Vedanta Madhyeva Te Tad Svikritiva Te Vadan. When it is Vedadharitam, all of them have the same source. Of course, the methodology, the procedures may be different. ते तत्र किञ्चित् एवं वर्तते, तत्र द ऐडियोलजीस् मे बि लिटल् बिट् डिफरेण्ट् बट् द प्रिन्सिपल्स् विच् आर् देर् इस् आल्वेस् सेम्. मनुष्य जन्म भवति तर्हि तत्र कर्माचरणं कर्तव्यं, धर्माचरणं कर्तव्यं, तत्र अनन्तरं त्यागः कर्तव्यं, प्रवृत्तिमार्गात् निवृत्तिमार्गं प्रति गत्वा जन्म साफल्यं मुमुक्षुत्वं तत्र प्राप्तव्यम् इत्येव. दीस् प्रिन्सिपल्स् आर् सेम्. एवं स्वीकर्तुं शक्यते. सम्यक् उक्तमस्ति, अतीव सम्यक् प्रतिपादितमस्ति. पश्यामः अनन्तरम् अयं लोकः, अयं प्रथमपुरुष एकवचनं, लोकः पुल्लिङ्गप्रथम एकवचनं, कर्मबन्धनः पञ्चमी एक कर्मबन्धनः कर्मबन्धनवान् भवति प्रथम एकवचनं, हे कौन्तेय सम्बोधन तदर्थम् अव्यय मुक्तसङ्गः प्रथम एकवचनं, कर्म द्वितीय एकवचनं, समाचर समाचर सम उपसर्गपूर्वक आ उपसर्गपूर्वक चर् धातोः लोट् मध्यमपुरुष एकवचनं भवतु. समीचीनम्. येन विष्णोः प्राप्तिः भवति ततो अतिरिक्तं सर्वमपि कर्मजनानां बन्धकं भवति. भगवत्प्रणिधानात् विहाय अन्यं सर्वं तत्र ईश्वर परमेश्वरप्रीत्यर्थम् इस् द ओन्ली थिङ्ग् विच् शुड् बी द ओब्जेक्टिव् आफ् आल् अवर् कर्म. एनिथिङ्ग् अदर् देन् दिस् विल् ओन्ली गिव् अस् बन्धकं कर्म, तत्र बन्धक भवति. तस्मात् फलापेक्षारहितः सन् शास्त्रोक्तं स्वकीयं कर्म समाचर इत्येव उक्तमस्ति. सन्धिभागं पश्यामः. कर्मणो अन्यत्र, कर्मणः अन्यत्र विसर्गसकाररेफगुण पूर्वरूपोऽपि भवति. लोकोऽयमपि विसर्गगुण पूर्वरूप सन्धयः भवन्ति. कर्म बन्धनं यस्य सः कर्मबन्धनः बहुव्रीहिः, मुक्तसङ्गः मुक्तः सङ्गः येन सः बहुव्रीहिः, बन्धनं बन्ध प्लस् ल्युट् भवति, बन्ध्यते अनेन इति बन्धनम् इति कृदन्तः भवति. केवलं तत्र दशमश्लोकस्य पीठिकां तत्र प्रवेशं कुर्मः आगामिकक्षायाम् एकवारं पश्यामः. वेरि वेरि इम्पार्टेण्ट् श्लोक. अगेन् फ्रम् श्रौतमार्गरीत्या पश्यामश्चेत् इट् इस् एन् इम्पार्टेण्ट् श्लोक. अगेन् फ्रम् नित्या अनुसन्धानरीत्या पश्यामश्चेदपि वेरि इम्पार्टेण्ट् श्लोक. सहयज्ञाः प्रजा सृष्ट्वा पुरोवाच प्रजापतिः अनेन प्रसविष्यध्वम् एष वोस्तिष्ठकामधुक्. सर्वे पृच्छन्ति, सर्वे चिन्तयन्ति जीवने, यदा कदापि वा चिन्तयामः, इफ् वी आल्सो हाव् वन् कामधेनु लैक् वाट् वसिष्ठा हेड्, इफ् वी आल्सो हाव् वन् कामधेनु हौ नैस् वुड् इट् बि. तदर्थमेव तत्र कर्ममार्ग परतया तत्र श्रीकृष्णः एतत् श्लोकं वदति. यु आल् आफ् अस् हाव् वन् कामधेनु वित् अस्, वि हाव् मेनि कामधेनुस्, आफ् कोर्स् गुरु, भगवान्, भगवद्गीता इत्यादि कामधेनवः सन्त्येव. परम् अनन्तरम् एष वोस्तिष्ठ कामधुक् इति तत्र गीतायां तृतीयाध्याय दशमश्लोके उक्तमस्ति. आगामिकक्षायाम् एतत् श्लोकानुसन्धानं कृपया कुर्वन्तु, पारायणं मननादिकं कुर्वन्तु. आगामिकक्षायां तत्र पुनर्मिलामः, तत्र चर्चां कुर्मः. यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीविजयो भूतिर्ध्रुवा नीतिर्मतिर्मम. गुरुरेव गतिः, गुरुमेव भजे, गुरुणैव सहस्मिनमो गुरवे, न गुरोः परमम्.